अथ चतुर्दशोध्याय गुणत्रय विभाग योग श्री भगवान उवाच परं भूय प्रवक्ष्यामि ज्ञानानां ज्ञानमुत्तमं यद् ज्ञात्वा मुनयः सर्वे परां सिद्धिमितु गतः इदं ज्ञानमुपाश्रित्य मम साधर्ममागतः सर्गेऽपि नोपजायन्ते प्रलयेन पतन्ति च मम योनिर्महद्ब्रह्म तस्मिन् गर्भं ददाम्यहं संभव सर्वभूतानां ततो भवति भारत सर्वयोनिषु कौन्तेय मूर्तया संभवन्ति जा तासां ब्रह्म महद्योनि अहं बीजप्रदः पिता सत्तं रजस्तम इति गुणाः प्रकृतिसंभवाः निवदन्ति महाबाहो देहे देहि नमभ्यं तत्र सत्तं निर्मलत्वात् प्रकाशकमनामयं सुखसंज्ञेन बध्नाति ज्ञानसंज्ञेन चानघ रजोरागात्मकं विद्धि तृष्णासङ्गसमुद्भवं तन्निवदन्ति कौन्तेय कर्मसंज्ञेन देहिनं तमस्तज्ञानजं विद्धि मोहनं सर्वदेहिनां प्रमादालस्य निद्राभिस्तन्निबध्नाति भारत सत्तं सुखे संजयति रजः कर्मणि भारत ज्ञानमावृत्त तु तमः प्रमादे संजयतुत रजस्तमश्चाभिभूय सत्तं भवति भारत रजः सत्तं तमश्चैव तमः सत्तं रजस्तथा सर्वदारेषु देहेस्मिन् प्रकाश उपजायते ज्ञानं यदा तदा विद्याद् विवृद्धं सत्यमित्युत लोभः प्रवृत्तिरारम्भ कर्मणाम समः स्पृहा रजस्येतानि जायन्ते विवृद्धे भरतर्षभ अप्रकाशो प्रवृत्तिश्च प्रमादो मोह एव च तमश्येतानि जायन्ते विवृद्धे कुरुनन्दन यदा सत्ये प्रवृद्धे तु प्रलयं जाति देहभृत् तदुत्तमविदां लोकान् अमलान् प्रतिपद्यते रजसि प्रलयं गत्वा कर्मसङ्गीषु जायते तथा प्रलीनस्तमसि मूढजोनिषु जायते कर्मणः सुकृतस्याहु सात्विकं निर्मलं फलं रजसस्तु फलं दुःखम् अज्ञानं तमसफलं सत्तात् संजायते ज्ञानं रजसो लोभ एव च प्रमादो मोहो तमसो भवतु ज्ञानमेव च ऊर्ध्वं गच्छन्ति सत्तस्था मध्ये तिष्ठन्ति राजसा जघन्यगुणवृत्तिस्था अधो गच्छन्ति तामसा नान्यं गुणेभ्यकर्तारं यदा दृष्टानुपश्यति गुणेभ्यश्च परं व्यक्ति मद्भावं शोधि गच्छति गुणेनेतान्नतित्तत्रीन् देहि देहसमुद्भवा जन्ममृत्युजरादुःखैर्विमुक्तो मृदनुश्नुते अर्जुनोवाच कैर्लिङ्गैस्त्रीन् गुणानेत्तानतितो भवति प्रभो किमाचारकथं चैतां स्त्रीन् गुणान्नतिवर्तते श्रीभगवानुवाच प्रकाशश्च प्रवृत्तिञ्च मोहमेव च पाण्डव न दृष्टि सङ्प्रवृत्तानि न निवृत्तानि काङ्क्षति उदासीनोपदासीनो गुणैर्जो न विचाल्यते गुणावर्तन्त इत्येवं जो वतिष्ठति नेङ्गते समदुःखसुखं स्वस्थ समलुष्टात्मकाञ्चनः तुल्यप्रियाप्रियो धीरस्तुल्यनिन्दात्मसंस्तुतिः मानापमानयोस्तुल्यस्तुल्यो मित्रारिपक्षयो सर्वारम्भपरित्यागी गुणात् स उच्यते माञ्जज्जो व्यभिचारेण भक्तिजोगेन सेवते स्वगुणान् समतीतैतान् ब्रह्मभूयाय कल्पते ब्रह्मणो ही प्रतिष्ठा हम अमृतस्यापयश्च शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च इति श्री महाभारती शतसहस्रयां संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषत्सु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः।